इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्री मोदी वियना नगरे ऑस्ट्रिया देशस्य महामात्रेण कार्लन हैमरेन सह वार्ताम् अकरोत्। सर्वोच्च न्यायालयेन उक्तं यत् तलाक इति परित्यागस्य अनन्तरम् अपि मुस्लिम महिला पतेः भरण पोषणस्य अधिकारिणी। जलप्लव प्रभावित क्षेत्रेषु नष्ट कृषिभूमिः येषां कृते कृषकाणां कृते उत्तरप्रदेश सर्वकारः भूमि पट्टानि प्रदास्यति। उत्तरप्रदेशे अद्य प्रातः उन्नावमण्डलस्य बंगरमऊ समीपे लखनऊ आगरा द्रुतमार्गे दुग्धयानेन सह द्विस्तरीय बसयानस्य आघातेन न्यूनातिन्यूनम् 18 जनाः मृताः, 19 च जनाः घातिताः। अपि च अद्य भारत जिम्बाब्वे देशयोः मध्ये हरारे इत्यत्र क्रीडा सम्प्रति प्रचलति। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्रमोदी अद्य वियना नगरे ऑस्ट्रिया देशस्य महामात्रेण कार्लन हैमरेन सह वार्तालापं कृत्वा बुधवासरे द्विपक्षीय सम्बन्धानां विविध परिमाणानां विषये चर्चां कृतवान्। एतेषु व्यापारः, निवेशः च विज्ञानं, प्रौद्योगिकी, हरित ऊर्जा, एआई, स्टार्टअप्स, पर्यावरणं, जलवायुपरिवर्तनं, सांस्कृतिक सहकार्यं, जनसम्बन्धाश्च इति विषयाः प्रमुखाः सन्ति। परस्परहितस्य क्षेत्रीय वैश्विक विषयेषु अपि नेतारः विचाराणाम् आदानप्रदानं कृतवन्तः। सभायाः अनन्तरं वार्ताहरवक्तव्ये श्रीमोदी अवदत् यत् तयोः चर्चा मानवता, जलवायुपरिवर्तनम्, आतंकवादं चेति विषयेषु अपि अभवत्। सः अवदत् यत् सः ऑस्ट्रियाम् आमन्त्रितयति यत् अयं देशः भारतस्य उपक्रमेषु अन्ताराष्ट्रिय सौर गठबन्धन, आपदा प्रतिरोधी आधारभूत संरचना, जैवेन्धन संघटनेषु सम्मिलितुम् आहूतवान्। प्रधानमन्त्रिणा उक्तं यत् लोकतन्त्रं, विधिराज्यम् इत्यादिषु मूल्येषु विश्वासः भारत ऑस्ट्रिया सम्बन्धस्य दृढमूलाधारा सन्ति। सः अवदत् परस्पर विश्वासेन सह हितैः च सम्बन्धाः सुदृढाः भवन्ति। प्रधानमन्त्री अवदत् यत् अद्य सः महामात्रेण हैमरेन सह अतीव महत्वपूर्णं सफलं च वार्तालापं कृतवान्। परस्पर सहकार्यम् अधिकं सुदृढं कर्तुं नूतनाः सम्भावनाः च ताभ्यां चिह्निताः। प्रधानमन्त्री अवदत् यत् तौ विश्वे प्रचलितानां सर्वेषां संघर्षाणां विषयेऽपि विस्तरेण चर्चां कृतवन्तौ, यत्र यूक्रेन पश्चिम एशिया देशयोः स्थितिः अपि अस्ति। प्रधानमन्त्री अवदत् यत् एषः युद्धस्य समयः नास्ति। समागमे उभौ नेतारौ संयुक्तराष्ट्रसंघस्य अन्येषु च अन्ताराष्ट्रिय संघटनेषु सुधारस्य आवश्यकतायाः विषये अपि बलं प्रदत्तवन्तौ। ऑस्ट्रिया देशस्य महामात्रः कार्ल हैमर अवदत् यत् यदा आधारभूत संरचनायाः समाजे प्राविधिककरणस्य, आधारभूत संरचनानां विकास सन्दर्भे च भारतस्य सफलता प्रभावशालिनी वर्तते। ततः पूर्वं वियना नगरे प्रधानमन्त्रिणः मोदिनः समारोहपूर्वकं स्वागतं कृतम्। सः ह्यः द्विराष्ट्रयात्रायाः द्वितीयपदे मास्कोतः वियतना नगरे प्राप्तवान्। तस्य आगमन समये भारतीय समुदायस्य सदस्यैः हार्दिकं स्वागतं कृतवन्तः। सर्वोच्च न्यायालयेन अद्य उक्तं यत् आपराधिक प्रक्रिया संहितायां पञ्चविंशत्युत्तरैकशततमायाः धारायाः अन्तर्गतं मुस्लिम महिला स्वपतेः भरण पोषणस्य कृते धन प्राप्तेः अधिकारिणी अस्ति। न्यायाधीशस्य वीवी नगरनाथस्य, अगस्टिन जॉर्ज मसीहस्य च समाविष्टा पीठिका अस्मिन् प्रकरणे याचिकां निरस्तां कृतवत्यः। यस्याम् एकः पुरुषः स्वकीय तलाक प्राप्त पत्न्याः अन्तरिम भरणपोषणं दातुं निर्देशस्य विरुद्धं याचिकां कृतवान् आसीत्। पीठिका एतदपि निर्णयं दत्तवती यत् यदि आवेदनस्य लम्बित कालस्य समये महिला तलाकं प्राप्नोति तर्हि सः विवाहस्य अधिकाररक्षणम् इति अधिनियमस्य आश्रयं ग्रहीतुं शक्नोति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। उत्तरप्रदेशे अद्य प्रातः उन्नावमण्डलस्य बंगरमऊ समीपे लखनऊ आगरा द्रुतमार्गे दुग्धयानेन सह द्विस्तरीय बसयानस्य आघातेन न्यूनातिन्यूनम् 18 जनाः मृताः, 19 च जनाः घातिताः। बिहारस्य सीतामणितः बसयानं दिल्लीनगरं गच्छति स्म। आघातस्य प्रभावः एतावान् विशालः आसीत् यत् बसयानं प्रायः चूर्णं जातम्। जनाः वाहनात् बहिः क्षिप्ताः च, पीडितानां निष्कासनार्थं आहतानां परिवहनार्थं च आरक्षिणः अन्ये च आपत्कालीन कर्मचारिणः स्थलं प्रति त्वरितम् आगतवन्तः। जिला प्रशासनेन सहायतार्थं दूरभाष संख्या प्रदत्ता सन्ति। संख्या अस्ति 8081211289। अस्यां दुर्घटनायां प्रधानमंत्री नरेन्द्र मोदी शोकं प्रकटितवान्। राज्य सर्वकारस्य निरीक्षणे स्थानीय प्रशासनं सर्वथा पीडितानां साहाय्यं कर्तुं प्रवृत्तम् इति प्रधानमंत्री अवदत्। सः क्षतिग्रस्तानां शीघ्रं स्वास्थ्य कामयति। राज्यस्य मुख्यमंत्री योगी आदित्यनाथः अपि दुर्घटना विषये दुःखं प्रकटितवान् तथा च आहतानां समुचित चिकित्सां सुनिश्चेतुम् अधिकारिभ्यः निर्देशम् अपि प्रदत्तवान्। केन्द्रीय स्वास्थ्य मंत्री जगत प्रकाश नड्डा स्वास्थ्य मंत्रालयस्य वरिष्ठाधिकारिभिः सह समीक्षा समागमं कृतवान्। सम्मेलनेऽस्मिन् राष्ट्रे डेंगू इत्यस्य परीक्षण तत्परतायाः आकलनं कृतम्। बुधवासरे नवी दिल्ली नगरे पत्रकार सम्मेलनं सम्बोधयन् नड्डा महोदयः अवदत् यत् मन्त्रालयः डेंगू निवारणस्य निरोधस्य प्रबन्धनस्य च योजनाः सज्जीकरोति। राज्यैः सह मिलित्वा अपि कार्यं कुर्वन्नस्ति। सः सूचितवान् यत् मन्त्रालयः शीघ्रमेव अहर्निश डेंगू सहायता सेवां प्रारभते तथा च राज्येभ्यः आगामिषु 4-5 दिवसेषु स्वीय अपि कार्यक्रमस्य प्रारम्भं कर्तुं कथितमस्ति। श्री नड्डा इत्यनेन अपि उक्तं यत् स्वास्थ्यमन्त्रालयः शिक्षा आवासः नगरविकासः इत्यादिभिः मन्त्रालयैः सह अन्तरक्षेत्रीय अन्तर्विभागीय सभाः करिष्यन्ति येन समन्वयः योजना च उत्तमरीत्या भविष्यति। नड्डा महोदयः आगामि दिनद्वये उच्चभारयुतैः राज्यैः सह अपि सभां करिष्यति। सः केन्द्रीय चिकित्सालयेभ्यः अपि निर्देशं दत्तवान् यत् ते विद्यालयानां कृते मार्गदर्शिका निर्गन्तुं राज्यैः सह डेंगू उपचारकेन्द्राणि समर्पितं प्रबन्धनम् अहर्निश स्वास्थ्यसेवा उपलब्धतां च सज्जीकर्तुं शक्नुवन्ति। उत्तरप्रदेश सर्वकारः तेषां कृषकाणां कृते भूमिपट्टानि प्रदास्यति येषां कृषिभूमिः जलप्लवग्रस्तक्षेत्रेषु कर्तनकारणात् नष्टा जाता। मुख्यमंत्री योगी आदित्यनाथ प्लवग्रस्तजनपदेषु पीलीभीत लखीमपुरखीरी जनपदेषु विमान सर्वेक्षणं कृत्वा बुधवासरे उद्धार कार्यक्रमस्य समीक्षां कृतवान्। तलाक प्राप्त मुस्लिम महिला भर्तुः भरणपोषणं प्राप्तुम् अर्हति इति सर्वोच्च न्यायालयस्य निर्णयं भाजपा दलं प्रशंसितवत्। बुधवासरे नवदिल्ल्यां वार्ताहर सम्मेलने प्रवक्ता सुधांशु त्रिवेदी मुस्लिम महिलानां कृते एषः निर्णयः महत्वपूर्णः इति उक्तवान्। अन्ते च क्रीडा वार्तायां, हरारे इत्यत्र भारत जिम्बाब्वे देशयोः मध्ये क्रिकेट क्रीडा सम्प्रति प्रचलति इति वार्ताः।